संजय उवाच
तं तथा कृपया विष्टं अश्रुपूर्णाकुलेक्षणं तं तथा कृपया विष्टं अश्रुपूर्णाकुलेक्षणं विषीदन्तं इदं वाक्यं उवाच मधुसूदनः उवाच मधुसूदनः
श्रीभगवान् उवाच अशोचान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः नानुशोचन्ति पण्डिताः न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे
वेद अविनाशिनं नित्यं य एनं अजं अव्ययं कथं स पुरुषः पार्थ कं घातयति हन्तिकम् वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि संयाति नवानि देहि
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापो न शोषयति मारुतः